इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः रूसदेशीयेन राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन सह रूस युक्रेनयोर्मध्ये प्रवर्तमानं संघर्षम् अधिकृत्य संवादः कृतः। दूरभाषमाध्यमेन जाते अस्मिन् संवादे भारत रूस देशयोर्मध्ये सामरिक सहभागित्वम् इतोऽपि सुदृढीकर्तुम् उपायाः चर्चिताः। सामाजिक संचारपटले प्रधानमन्त्री अलिखत् यत् असौ श्रीपुतिनेन सह द्विपक्षीय सम्बन्धान् सुदृढीकर्तुम् स्वस्य अनुभवम् अपि च सद्य एव जातस्य युक्रेन देशस्य यात्रावृत्तम् चर्चितवान्। प्रधानमन्त्रिणा रूस युक्रेनयोर्मध्ये प्रवर्तमान द्वन्द्वस्य शान्तियुत समाधानाय भारतस्य प्रतिबद्धता पुनरुच्चारिता। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकर ब्राजील देशस्य G20 समूहस्य अध्यक्षतायै भारतस्य पूर्ण सहयोगं समाश्वासितवान्। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकर अथ ब्राजील देशीय विदेशमन्त्री मौरा वियेरा इत्येषः ह्यः नवदिल्ल्यां भारत ब्राजील संयुक्तायोगस्य नवमस्य उपवेशनस्य सहाध्यक्षतां कृतवन्तौ। उपवेशनात् पूर्वं डॉ जयशंकरः उक्तवान् यत् अस्मिन् अवसरे सकारात्मिक्याः चर्चायाः महती सम्भावना दरीदृश्यते। उभौ मन्त्रिणौ भारतस्य अध्यक्षतायां सम्पन्नस्य गतवर्षस्य शिखरसम्मेलनस्य G20 इत्येतस्य मुख्योपलब्धेः वरिवर्धनाय चर्चाम् अपि विहितवन्तौ। वर्तमानसमये ब्राजीलदेशं G20 समूहस्य अध्यक्षत्वं विदधाति। ऐषमः वर्षस्य नवम्बरमासस्य 18-19 दिनांकयोः G20 शिखरसम्मेलनस्य आयोजनं रियो डी जेनेरियो नगरे भविष्यति। भारतीय जनता पार्टीति दलस्य जॉर्ज कुरियनः रवनीत सिंह बिट्टुः अपि च कांग्रेसदलस्य अभिषेक मनु सिंघवी इत्येषः राज्यसभायै निर्विरोधतया निर्वाचिताः जाताः। तत्रैव एतान् नेतृन् समेत्य 12 इतोऽपि नेतारः निर्वाचिताः सन्ति राज्यसभायै, येष् भाजपेति दलस्य 9, एनडीए इत्यस्मिन् तस्य सहयोगिदलानां 2 सदस्यौ सम्मिलितौ स्तः। निर्वाचितेष् भाजपेति दलप्रत्याशीष् असमराज्यतः मिशनरञ्जनदासः रामेश्वरतेली इत्येषः, बिहारराज्यतः मननकुमारमिश्रः, हरियाणातः किरण चौधरी, मध्यप्रदेशतः जॉर्ज कुरियनः, महाराष्ट्रतः धैर्यशील पाटिलः, ओडिशातः ममता मोहन्ता, राजस्थानतः रवनीत सिंह बिट्टुः, त्रिपुरातः भट्टाचार्यजी सम्मिलिताः सन्ति। कांग्रेसदलीयः अभिषेक मनु सिंघवी तेलंगानातः अथ महाराष्ट्रतः राष्ट्रिय लोक मोर्चा दलस्य उपेन्द्र कुशवाहाः च राज्यसभायै चिताः जाताः। चिली देशीयः विदेशमन्त्री अल्बर्टो वान क्लेवरन इत्येषः ह्यः रात्रौ नवदिल्लीं प्रत्यागतवान्। अद्य विदेशमन्त्री डॉ एस जयशंकरः चिलीदेशीयः च विदेशमन्त्री नवदिल्ल्यां द्वितीयस्य भारत चिली संयुक्तायोगस्य उपवेशनस्य सहाध्यक्षतां करिष्यतः। एतदतिरिच्य श्री क्लेवरनः चिली भारत व्यापार कृषि शिखर सम्मेलने अपि भागं भजिष्यति, तदनु मुंबई नगरं प्रति प्रस्थास्यति। जम्मू कश्मीर केन्द्रशासित प्रदेशे विधानसभा निर्वाचनस्य प्रथमचरणाय नामांकनं ह्यः सम्पन्नं जातम्। प्रदेशे प्रथमचरणे षड् जनपदानां 24 आसनेषु सितम्बर मासस्य 18 दिनांके मतदानं भविष्यति। भारतीय पैरालम्पिक क्रीडकानां 84 सदस्यानां दलम् अद्य पैरिस नगरे आयोक्ष्यमाणासु क्रीडासु पदकानि विजेतुं तत्परं सज्जं च अस्ति। अद्य पर्यन्तं भारतं पैरालम्पिक क्रीडायां प्रेषितं इदं भारतस्य बृहत्तमं दलम् अस्ति। इति वार्ताः।